नमस्कारः, सर्वेषां स्वागतं नूतनन्यायवर्गे. गत सत्रे अस्माभिः न्यायशास्त्रस्य कश्चन परिचयः प्राप्तः. परिचयं प्राप्य वयं तत्र दृष्टवन्तः यत् नैयायिकाः जगति यावन्ति वस्तूनि सन्ति तेषां वर्णनम् अथवा विश्लेषणं कर्तुम् इच्छन्ति. ये ये पदार्थाः सन्ति तेषां सर्वेषां वर्णनं कर्तुम् इच्छन्ति इत्यतः तेषां माध्यमं किं वर्णनार्थम् इत्युक्ते श्रेणीकरणं. वस्तूनि यावन्ति सन्ति तेषां सर्वेषाम् एकस्यां श्रेण्यां स्थापनम् इति नैयायिकानाम् आशयः. नमस्कारः.
नमस्कारः.
हरिप्रिया भगिनी इति खलु?
हा, हरिप्रिया अस्मि.
अस्तु, अनन्तरं
अहं सङ्गीता. नमस्कारः भगिनी.
सङ्गीता भगिनी, अस्तु, समीचीनं. भवती एव सङ्गीता श्रीकण्ठन् इति वा?
हा, अस्तु
किल. अस्तु, हा, अस्तु. तर्हि न्यायशास्त्रस्य कश्चन परिचयं प्राप्तवन्तः. अधुना किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम. तर्हि प्रायः विद्या भगिनी, भवती किञ्चित् वक्तुम् इच्छति वा नैयायिकाः किं कृतवन्तः प्रथमपुटे? कृपया म्यूट् कुर्वन्तु यस्य कस्यापि गृहे ध्वनिः अस्ति.
पुनः पृच्छतु भगिनि.
एकनिमिष भगिनि, म्यूट् करोमि. यस्य कस्यापि, हा, समीचीनम्. अस्तु, तर्हि अस्माभिः दृष्टं यत् नैयायिकाः पदार्थानां विश्लेषणसन्दर्भे किञ्चित् श्रेणीकरणं कुर्वन्ति खलु. तथा कृत्वा नवद्रव्याणि जातानि. तर्हि द्रव्यम् इति संज्ञा कथम् आगता?
जगति बहूनि वस्तूनि, बहवः पदार्थाः सन्ति. तेषु केचन कञ्चन न काञ्चन पदार्थान् स्वीकृत्य प्रतिनिधिरूपेण तत्र श्रेणीकरणं कृतं. द्रव्यं तत्र नवद्रव्याणि सन्ति. पृथ्वी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः. यत्र यत्र द्रव्यमस्ति तस्मिन् गुणः अपि अस्ति. तत्र यत्र गुणः अस्ति तत्र द्रव्यमस्ति इति कृत्वा तत्र गुणम् आदाय द्रव्यस्य संज्ञां कृतवन्तः.
हा, समीचीनं भगिनि, सम्यक् अस्ति. एकं विशेषमादाय, अत्र गुणः इति विशेषमादाय, यत्र यत्र गुणः तत्तद् द्रव्यम् इति संज्ञां दत्तवन्तः. अस्तु, नवद्रव्याणि इति भगिनी उक्तवती एव. अस्माभिः सप्तपदार्थाः अपि दृष्टाः. ते के इति विजी भगिनी वदति वा?
सप्तपदार्थाः द्रव्यं, गुणः, कर्म, सामान्य, विशेष, समवाय, अभावः इति सप्तपदार्थाः.
अस्तु भगिनि, बहु समीचीनम् इति सप्तपदार्थाः, नवद्रव्याणि इति उच्चारितानि एव अधुना. अस्तु, एवं श्रेणीकरणं कृतवन्तः. अपि च ग्रन्थस्य विषये किञ्चित् अस्माभिः दृष्टं खलु गतवर्गे. सामान्यतया न्यायशास्त्रग्रन्थे कति भागाः वर्तन्ते, ते च के इति? सुमित्रा भगिनी वदति वा?
क्षम्यतां भगिनि, पुनः एकवारम्.
न्यायशास्त्रग्रन्थे विद्याधरी इति अस्माकं ग्रन्थः, तर्कसङ्ग्रहः इति ग्रन्थस्य व्याख्या अस्ति खलु. हा, तर्हि न्यायशास्त्रग्रन्थेषु भागत्रयं वर्तते. ते भागाः के इति वदति वा किञ्चित्?
न स्मरामि.
नास्ति, नास्ति चिन्ता. प्रायः प्रिया भगिनी साहाय्यं करोति वा?
आं भगिनि. प्रथमतः उद्देशः, अनन्तरं लक्षणं, ततः परं परीक्षा इति.
हा, तस्य विषये किञ्चित् वदतु. उद्देशः इत्युक्ते कः लक्षणं
कथं द्रव्यं ज्ञातुं शक्नुमः इति उद्देशः भवति.
हा उद्देशः कथम् इत्यस्य अपेक्षया उद्देशविभागे किं भवति इति चेत् द्रव्याणाम् इति न पदार्थानां नाम्ना निर्देशनं भवति. नामनिर्देशः केवलं नामकरणं भवति उद्देशः इत्यस्मिन् भागे. अस्तु, इति प्रथमः भागः ग्रन्थस्य. द्वितीयः भागः लक्षणम् इति अस्ति, अथवा लक्षणग्रन्थः. तस्य विषये रघुपतिमहोदय किञ्चित् वदति वा?
सोरि, न स्मरामि.
अस्तु, सङ्गीता भगिनी साहाय्यं करोति.
अस्तु भगिनि, लक्षण उद्देशभागे नामनिर्देश द्रव्यम् इति किं गुणः इति कः इति निरूप्यते. लक्षणं मध्ये द्रव्यस्य लक्षणं, गुणस्य लक्षणम् एतत् सर्वं वर्णितं भवति.
हा इत्युक्ते, हा समीचीनं भगिनि, लक्षणविभागे तथा अस्ति. इत्युक्ते द्रव्यम् इति उच्यते चेत् केन कारणेन उच्यते, अपि च यथा भगिनी उक्तवती गुणेन उच्यते, तादृशमस्ति लक्षणम्. अस्तु, अन्ततो गत्वा इतोपि एकः भागः अस्ति, भवती तस्य विषये अपि किञ्चित् वदति वा?
परीक्षा इति अन्तिमभागः अपि वर्तते, परन्तु तर्कसङ्ग्रहे उद्देशः भागः लक्षणभागः एव वर्तते, परीक्षाभागः न वर्तते. तत्र कारणं किं चेत् बालबोधनाय प्रवृत्तत्वात् परीक्षाभागः तत्र न भवति इति उक्तः.
हा, बहु समीचीनमस्ति भगिनि. परीक्षाभागे किं भवति इति चेत् तत्र गुणः इति वदामश्चेत् द्रव्ये, तर्हि गुणः सर्वत्र अस्ति वा अथवा द्रव्ये एकत्रैव अस्ति वा, तादृशविचाराः अत्र परिशीलिताः भवन्ति. अस्तु, अन्ततो गत्वा भागत्रयं वर्तते, अपि च भवती यथा उक्तवती विद्याधर्यां भागद्वयमेव, उद्देशः अपि च लक्षणम् इति भागद्वयम्. अस्तु, सम्यगस्ति. तर्हि गतसप्ताहे वयम् उद्देशभागं प्रविष्टवन्तः वस्तुतः द्रव्यस्य निरूपणेन, क्षम्यतां पदार्थनिरूपणेन. तत्र द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः इति तृतीयपुटे उपरितनभागे पश्यन्तु, तत्र अस्ति. तस्मात् आरभ्य उद्देशग्रन्थः इति उच्यते. अस्तु, ततः अग्रे गत्वा आधाराधेयभावव्यवस्थापनम् इति अस्ति खलु, तस्य विषये किञ्चित् चर्चाम् आरब्धवन्तः. अद्य पुनः तस्मात् आरभ्य एव कुर्मः. तर्हि हरिप्रिया भगिनी पठितुम् इच्छति वा आधाराधेयभावः इति?
अस्तु भगिनि.
अपि च एकनिमिष भगिनि, नूतनतया केनचित् आगतं खलु,
श्रीवल्ली भगिनि. नताशा अस्मि.
का?
नताशा
भगिनी, समीचीनं. श्रीवल्ली भगिनी दृश्यते किल? अस्तु, तर्हि विद्या भगिनी, विजय भगिनी, सरला भगिनी, सुमित्रा भगिनी, प्रिया भगिनी, रघुपतिमहोदय, संगीता भगिनी, हरिप्रिया भगिनी, श्रीवल्ली भगिनी, नताशा भगिनी इति. अस्तु, तर्हि हरिप्रिया भगिनी कृपया अग्रे गच्छतु.
आधार आधेयभावव्यवस्थापनम्, अत्र इदं कल्पयामः आसनं प्राणि इति. तर्हि तत् आसनम् इदं चिन्तयेत् अहं यज्ञदत्तस्य भारं वहामि. इयं भारवहनस्य चिन्ता एव अधिकरणता, आधारता इति वा उच्यते.
अस्तु भगिनि, तावत् किञ्चित् कृपया.
यदि यज्ञदत्तः आसने उपविष्टः, आसनं स्वं प्राणी इति चिन्तयेत् तदा आसनम् आसनस्य एतावत् चिन्ता भवति अहं यज्ञदत्तस्य भारं वहामि इति. इयं भारवहनस्य यावत् चिन्ता भवति तदेव अधिकरणता. अथवा आधारता.
हा अत्र पुनः वच्मि एकवारं पुनस्मरणार्थं. यज्ञदत्तः आसने उपविष्टः इति चेत् आसनम् अधिकरणम् अथवा आसनम् इति आश्रयः. अस्तु, अधिकरणम् इत्यस्य भावः कः भगिनि? नमस्कारः मुरळीमहोदय.
धन्यवादः
मुरळीमहोदय इति. हा हा, समीचीनं महोदय.
एकनिमिषम् अहं पुस्तकम्.
अस्तु अस्तु, पुस्तकं नीत्वा आगच्छतु. अपि च मुरळीमहोदय, भवतः ई पत्रम् अस्माकं सकाशे नास्ति. योर् ईमेल् ऐ डी इस् नाट् वित् अस्, सो प्लीस् रिप्लै टु अस्. अस्तु अस्तु भगिनि, अग्रे. हरिप्रिया भगिनि, भगिनि अस्तु, अधिकरणम् इत्यस्य भावः कः?
आधारो अधिकरणम्.
सत्यम्, आसनम् इति अधिकरणम् इत्युक्ते बेस्, अधिकरणं तु जानाति. मम प्रश्नः अस्ति, अधिकरणम् इत्यस्य भावः कः? अस्तु भगिनि, वदतु इदानीं.
गुणः.
इदानीं सुन्दरः इत्यस्य भावः कः? सौन्दर्यम् अथवा सुन्दरता. तल् इति प्रत्ययः उपयुज्य सुन्दरता इति आगच्छति. अस्तु, उन्नतः इत्यस्य भावः उन्नतता, यथा अस्तु तथा तद्वदेव. शीतलम् इत्यस्य भावः शीतलता, तद्वदेव. अधिकरणम् इत्यस्य भावः अधिकरणता. आधारः इत्यस्य भावः आधारता. तर्हि आसनम् इति अधिकरणम् इति चेत् तस्मिन् किं विद्यते?
अधिकरणम्.
आसनम् एव अधिकरणम्.
आसनमेव अधिकरणं.
तस्मिन् अधिकरणता. आसनमेव आधारः, तस्मिन् आधारता. इदानीं सुन्दरः बालकः इति वदामश्चेत् सुन्दरबालके सुन्दरता अस्ति इति वदामः खलु. तद्वद् अधिकरणे अधिकरणता अथवा आधारे आधारता अस्ति इति वक्तुं शक्नुमः. अत्र तु आसनम्. अस्तु, तादृशमस्ति आसनम्, अधिकरणम् अथवा आधारः इति. अस्तु, इतः अग्रे. अस्तु, अग्रिमवाक्यद्वयमपि भवती पठतु.
यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति. इयं चिन्ता एव यज्ञदत्ते विद्यमाना आधेयता इत्युच्यते. यज्ञदत्तं विहाय.
I'll mute you, and when you want to talk, please unmute yourself.
Yes, so, ma, yes, definitely, Bhagini.
Asta?
Please.
There is some background noise. Thanks, Mahodaya. Asta, Bhagini.
Yajna dattaha chintayati, aham bharam sthapayami iti. Iyam chinta eva, yajna datte vidyamana adheyata ityuchyate.
अधिकरणताविषये अधिकरणता जानीमः अधुना. अस्तु, आसने अधिकरणता. इदानीं यज्ञदत्तस्य विषयः, सः किं चिन्तयति?
यज्ञदत्तः भारं स्थापयति स्थापयित्वा चिन्तयति अहं भारं स्थापयामि इति. इयं चिन्ता यज्ञदत्ते विद्यमान आधेयत आधेयम्
इयं चिन्ता एव आधेयत
आधेयः
यज्ञदत्तः आधेयः यज्ञदत्ते किमस्ति
आधेयत
आधेयत यथा आसने अधिकरणतः तद्वत् यज्ञदत्ते आधेयत किमर्थं चेत् सः आधेयः इति अस्तु तर्हि अधिकरणता आधेयत इति नूतन पारिभाषिकशब्दद्वयं तर्हि वयं चिन्तयितुं शक्नुमः किमर्थम् एतत् सर्वं पठामः इति खलु परन्तु अग्रे गत्वा लक्षणनिरूपणसन्दर्भे द्रव्यस्य लक्षणं भवतु वा गुणस्य वा अथवा अन्यस्य कस्यचित् एवम् आधारादेयभावः इत्यादीन् सिद्धान्तान् उपयुज्य एव तत्र लक्षणनिरूपणं भवति तदर्थमेव यथा वयम् ए बि सि डि इति पठित्वा तदनन्तरं वाक्यानि रचयामः खलु अक्षराणि पठित्वा तद्वत् एते सिद्धान्ताः तथा सन्ति अस्तु समीचीनं तर्हि अग्रे गच्छेम श्रीवल्ली भगिनी श्रोतुम् इच्छति वा सर्वे श्रोतुं शक्नुवन्ति खलु मम ध्वनिं सा न शृणोति इति वदति अस्तु नताशा भगिनी अग्रे पठितुम् इच्छति वा
आं भगिनि यज्ञदत्तं विहाय कश्चित् अचेतनः वक्ष्यमाणः सङ्ख्यारूपगुणः उपरि भवति चेत् अपि सः गुणोऽहं भारं स्थापयामि इति चिन्तयतीति आलोचयामः अग्रिम अपि
तावद् किम् अवगतम्
भगिनी सम्यक् रीत्या न अवगच्छामि विहाय वक्ष्यमाणः अर्थं न जानामि
अधुना यज्ञदत्तः आधारः तावत् क्षम्यताम् आधेयः तावत् अवगच्छति खलु
आम्
यज्ञदत्तः आधेयः यतोहि सः
आधेयः
उपरि उपविष्टः अस्ति उपरि अस्ति उपरि यः अस्ति आधेयः अधः यदस्ति तद् अधिकरणम् इति इदानीं किम् उक्तम् अत्र यज्ञदत्तं विहाय कश्चित् अचेतनः अचेतनः इत्युक्ते यस्य चेतना नास्ति यज्ञदत्तः तु चेतनः जीवित पुरुषः खलु इदानीम् अचेतनः वक्ष्यमाणः सङ्ख्यारूपगुणः इति उक्तं वक्ष्यमाणः इत्युक्ते अग्रे उच्यते सङ्ख्याविषये सङ्ख्या इति एकः गुणः अस्ति अस्तु प्रथमपृष्ठं गत्वा तत्र पश्यतु सङ्ख्या कुत्र अस्ति नवद्रव्याणि दर्शितानि तेषु सङ्ख्या कुत्र अस्ति
कालः दिक् मनः
आत्मा मनः तत्र सर्वत्र सङ्ख्या इति गुणः अस्ति खलु अपि च सङ्ख्या इति गुणः अचेतनः वक्ष्यमाणः इत्युक्ते भविष्यत्काले शानच् प्रत्ययः अग्रे उच्यते तस्य विषये इतोपि तादृशगुणः उपरि अस्ति वा अधः अस्ति वा
उपरि
उपरि अस्ति खलु यथा यज्ञदत्तः उपरि अस्ति तद्वत् तर्हि गुणस्यापि का चिन्ता भवति स्थूलाक्षरे किं दत्तं तत्र
गुणोऽहं भारं स्थापयामि
यथा यज्ञदत्तः चिन्तितवान् तद्वत् एषः गुणः अपि चिन्तयति इति
आम् आम् वक्ष्यमाणः अर्थं किं
वक्ष्यमाणः इत्युक्ते अग्रे उच्यते इति चिन्तयतु वच् इति धातुतः लृट् लकारे इत्युक्ते भविष्यत्कालविवक्षायां शानज् इति प्रत्ययम् उपयुज्य वक्ष्यमाणः इति आगतः शब्दः भविष्यत्कालसूचकः अग्रे उच्यते सङ्ख्यारूपगुणस्य विषये तर्हि एषः गुणः सङ्ख्या इति गुणः अपि एवमेव चिन्तयति गुणोऽहं भारं स्थापयामि इति चिन्तयति अस्तु अग्रे भगिनि. अतः
भगिनि एकः प्रश्नः अस्ति अत्र. मनः मनः मनसि अपि संख्यारूपगुणः अस्ति, तर्हि मनः अपि अचेतनः अस्ति वा?
मनः निश्चयेन मनः अचेतनः एव भगिनि, एकं द्रव्यम्.
ओ अस्तु. यद्यपि तत्र चिन्तनं मनसि द्वारा भवति वा अथवा मनसि मनः इन्द्रियम् अचेतन इन्द्रियं वा?
तथा चिन्तयितुं शक्यते, यतोहि भवती यद् चिन्तनम् इति वदति खलु, मनसः कार्यम् इति, तत्तु ज्ञानम् अस्ति, एकविधज्ञानम्. अधुना द्रव्यश्रेण्यां पश्यतु, ज्ञानं कुत्र अस्ति? आत्मनि अस्ति. तर्हि अग्रे गत्वा पश्यामः यद् मनः ज्ञानस्य ग्रहणे सहायकं भवति, अपि च इन्द्रियं यथा भवती उक्तवती च.
ओ यद्यपि अचेतनः अस्ति तथापि सहायम्
इन्द्रियरूपेण. सत्यम्.
अस्तु अस्तु.
चिन्तनम् इति यद् उक्तं तद् ज्ञानस्य श्रेण्यामेव आगच्छति.
अस्तु, धन्यवादः भगिनि.
अस्तु, समीचीनम्. अस्तु तर्हि नताशा भगिनी अग्रे अन्तिमवाक्यम्. अतः
तादृशे पदार्थे आधेयता भवति.
पूर्वं किं
भारं स्थापयति तत् पदार्थम् आधीयता भवति. तत् पदार्थे आधीयता भवति.
समीचीनं. हा, यः कोऽपि अहं भारं स्थापयामि इति चिन्तयति तस्मिन् आधेयति
चिन्तयति. तथा आसने अधिकरणता वर्तते. आसने आसनं भारं वहति, तथैव आसने अधिकरणता भावः भवति.
हा, बहु सम्यक् अस्ति भगिनि. अस्तु अग्रे गत्वा इतोपि एकं वाक्यमस्ति, समापयतु.
प्रकृते अपि द्रव्यम् अधः अस्ति, गुणश्च उपरि अस्ति इति उक्तौ द्रव्ये अधिकरणता, गुणे च आधेयता अस्तीति आयातम्. प्रकृते अधः द्रव्यं
प्रकृते एकनिमिष भगिनि, अत्र न्यायशास्त्रे प्रकृते इत्युक्ते प्रकृतिः इति सामान्यशब्दः अस्ति खलु, नेचर् इति, तथा नास्ति. प्रकृते इत्युक्ते अस्माकं मूलविषये. लेट् अस् कम् टु द पायिण्ट्. यद्वयं चर्चयामः तादृश अर्थः अस्ति. अस्तु, प्रकृते किं प्रकृतेपि
पदार्थं
सत्यं, प्रकृतेपि ततः अग्रे किमस्ति? द्रव्यं
द्रव्यम् अधः अस्ति, गुणश्च उपरि अस्ति इति. तत् द्रव्यम् अधः अस्ति, तत् द्रव्यम् अधिकरणता भावः अभावः भवति. तत् द्रव्ये अधिकरणता भावे भवति, गुणः उपरि भवति, तथैव गुणः गुणे आधेयता भवति इति.
हा, द्रव्यम् अधिकरणं प्रथमविभक्त्यां,
द्रव्यम् अधिकरणं गुणे गुणम् आधेय.
हा, गुणः आधेयः,
गुणः आधेयः.
अस्मिन् अनयोः वाक्यद्वयोः सर्वं प्रथमविभक्त्याम् अस्तु मनसि भवेत्. यदा वयम् अधिकरणम् आधेयः इति वदामः तथा अस्ति, द्रव्यम् अधिकरणं गुणः आधेयः. किन्तु यदा भावस्य विषये वदामः, अधिकरणता आधेयता इति सूचयामः, तदा सप्तमी विभक्ति भवति. द्रव्ये अधिकरणता, गुणे च आधेयता. बुद्धं भगिनि? समीचीनम्. एतावता कोऽपि प्रश्नः वा? सम्यक् अस्ति. श्रीवल्ली भगिनी अस्ति वा अधुनापि? अस्तु पुनः तर्हि विद्या भगिनी अग्रे कृपया.
अस्तु आसने अधिकरणता वर्तते इति अमुं विषयं लघुना उपायेन कथं निरूपयामः. तत्र निष्ठा इति वर्ति इति पदद्वयम् उपकरोति. अतः आसननिष्ठा अधिकरणता आसनवर्तिनी अधिकरणता इति वाक्यद्वयं जातम्. तद्वत् एव यज्ञदत्तनिष्ठ आदेयत आदेयत यज्ञदत्तनिष्ठ आदेयत यज्ञदत्तवर्ति आदेयत इति च वाक्यद्वयम् श्रूयते किम्?
आमां भगिनि अधुना वदतु.
तर्हि अत्र यदि आसने अधिकरणता अस्ति अपि च यज्ञदत्ते आदेयता अस्ति इत्यस्मिन् विषये एकेन उपायेन कथं निरूपयामः इति अस्ति. तर्हि तत्र निष्ठा इति अथवा वर्ति इति पदद्वयस्य उपयोगं कुर्मः. तत्र अत्र आसननिष्ठा अधिकरणता अथवा आसनवर्तिनी अधिकरणता इति वाक्यद्वयम्. एवमेव तत्र यज्ञदत्ते आदेयता अस्ति. तत्र यज्ञदत्तनिष्ठ आदेयता यज्ञदत्तवर्ति आदेयता इति वाक्यद्वयम्. अत्र कथं वदामः यज्ञदत्ते आदेयता अस्ति इत्यस्य कृते यज्ञदत्तनिष्ठा आदेयता अथवा यज्ञदत्तवर्ति आदेयता. एवमेव आसने अधिकरणता अस्ति तर्हि आसननिष्ठा अधिकरणता अथवा आसनवर्तिनी अधिकरणता इति वाक्यद्वयं भवति उभयत्र.
बहु समीचीनं भगिनि. लौकिकभाषायां केवलं वदामः यज्ञदत्तः आसने उपविष्टः, परन्तु अधुना वयं किञ्चित् अग्रे गत्वा किं किं जानीमः. आसने यज्ञदत्तः अस्ति इत्यस्य कथनेन यज्ञदत्ते आधेयता आगता, अपि च आसने अधिकरणता इति इतोपि अंशद्वयम् आगतं खलु. तत् सर्वं लघुना उपायेन लघुमार्गेण कथं वदामः. वस्तुतः एतादृशानि वाक्यानि यद् भगवती अधुना पठितवती तानि बहूनि लभन्ते अस्मिन् ग्रन्थे. तर्हि संस्कृतभाषायाः शक्तिः का इति एतेषां वाक्यानां माध्यमेन ज्ञातुं शक्नुमः. यतोहि एकं बृहत् सिद्धान्तं स्वीकृत्य लघुना उपायेन लघुमाध्यमेन निरूपणं कुर्वन्ति. अधुना निष्ठा अपि च वर्ति इति पदम् उपकरोति इति उक्तम्. तद् दृष्ट्वा भगिनी किं चिन्तयति, निष्ठा इत्यस्य अर्थः कः स्यात्?
निष्ठा इत्युक्ते विद्यमानः अथवा वर्तते इति वा?
हा, बहु समीचीनं भगिनि. इत्येव निष्ठा इत्युक्ते युक्तः अथवा विद्यमानः अथवा वर्तते इति. यज्ञदत्तः कुत्र वर्तते?
आसने.
तर्हि आसने किमस्ति? आसनं किं प्रथमतया आसनं किं तर्हि?
आसनम् अधिकरणं. यज्ञदत्तः आदेयः. यज्ञदत्तः आसने अस्ति. यज्ञदत्तः आसने अस्ति.
हा, बहु समीचीनं. तर्हि अधुना आसने किम् अस्ति तर्हि अधिकरणं भूत्वा? आसने
आसने अधिकरणता अस्ति.
हा, इदमेव वाक्यम् आसने अधिकरणता अस्ति इति निष्ठा प्रयुज्य वदतु.
आसने अधिकरणता अस्ति इत्युक्ते आसने आसने अधिकरणता अस्ति इत्युक्ते आसननिष्ठा अधिकरणता.
हा, बहु समीचीनं. वर्ति प्रयोगं कृत्वा?
आसनवर्तिनी अधिकरणता.
हा, बहु समीचीनं भगिनि. अधुना यज्ञदत्ते किम् अस्ति?
यज्ञदत्ते आदेयता. आदेयता यज्ञदत्तनिष्ठ आदेयता अथवा यज्ञदत्तवर्ति आदेयत.
हा बहु समीचीनं. निष्ठा अपि च वर्ति अनयोः प्रयोगः एवं क्रियते. किमपि कुत्रचित् वर्तते इत्यस्य सूचनार्थं निष्ठा अपि च वर्ति अनयोः प्रयोगः. वर्ति इत्युक्ते प्रायः कुत्र अस्ति अथवा कुत्र वर्तते, कुत्र विद्यमानम् इति सूचयति. अपि च आसनवर्तिनी अधिकरणता इति व्यस्तप्रयोगः अस्तु. किन्तु आसनवर्ति अधिकरणता इति अपि वक्तुं शक्यते. तत्र समस्तप्रयोगः समासपदं जातम्. आसनवर्ति इति प्रातिपदिकं, स्त्रीलिङ्गे वर्तिनी, अपि च पुल्लिङ्गे तु जानीमः आसनवर्ती इति भवति. तर्हि अधिकरणता इति स्त्रीलिङ्गपदं, तदर्थम् आसनवर्तिनी अधिकरणता इति उक्तं. समस्तपदे जाते आसनवर्ति अधिकरणता इति भवति, यथा अत्र प्रदर्शितवन्तः यज्ञदत्तवर्ति आधेयता इति वाक्यद्वयमस्ति. सर्वैः बुद्धं? कोऽपि प्रश्नः वा?
भगिनी न अवगच्छति, द्वयोः मध्ये अपि निष्ठा वर्ति इति कथं?
प्रश्नः कः भगिनी, तयोः मध्ये भेदः कः इति वा?
आसननिष्ठा आसनवर्ति इति उक्तवती, यज्ञदत्तनिष्ठा यज्ञदत्तवर्ति इति अपि कथं, द्वयोः मध्ये प्रयोगं कथम् इति न अवगच्छामि.
द्वयोः अर्थः समानः भगिनि.
निष्ठावर्ति इति
सत्यं, वर्ति इत्युक्ते विद्यते अस्ति इति अर्थः. तर्हि उभयोः प्रयोगः शक्यः. अस्तु अस्तु
भगिनि.
हा वदतु.
एकः संशयः भवति, निष्ठावर्ति द्वयोः अर्थः समानः इति चेत् किमर्थं द्वयम् उपकरोति, पदद्वयम् उपकुर्वन्ति?
केवलं मार्गद्वयम् अस्ति इति सूचनार्थं भगिनि, तावदेव.
मार्गद्वयम्
एकमेव अर्थं प्रतिपादयितुं मार्गद्वयम् अस्ति, तावदेव. आसननिष्ठ अधिकरणता इत्युक्ते आसनम् अधिकरणं, तस्मिन् अधिकरणता अस्ति. एतत् सर्वं लघुमार्गेण आसननिष्ठ अधिकरणता अथवा आसनवर्ति अधिकरणता इति वक्तुं शक्यते. न्यायशास्त्रे एतद् वक्तुं पदद्वयम् उपकरोति इति, निष्ठा अपि च वर्ति. भेदः किमपि नास्ति, कोऽपि भेदः नास्ति.
एकः प्रश्नः अस्ति. अत्र निष्ठ वा वर्ति पदं सप्तमी स्थाने प्रयोगः कुर्मः इति, लघु कथं स्यात्?
आसने अधिकरणता इत्यस्य स्थाने खलु भगिनि भवत्याः प्रश्नः. हा लघु कथं? हा अग्रे गत्वा पश्यामः. निरूपकनिरूप्यभावः इति आगच्छति. अस्तु, अधिकरणतया आधेयता निरूपिता भवति, आधेयतया अधिकरणता भवति. तेन एकस्मिन् वाक्ये सर्वम् अन्तर्भूतः भवति. एकस्मिन् पदे वस्तुतः सर्वम् अन्तर्भूतः भवति. कथं क्रियते तैः इति अग्रे पश्यामः, निरूपकनिरूप्यभावः इत्यत्र. अस्तु, समीचीनः किन्तु प्रश्नः. अग्रे गच्छेम तर्हि. सौम्या भगिनी इति आगतवती खलु अधुना. सौम्या भगिनी अस्ति वा? अस्तु, तर्हि विजय भगिनी अग्रे पठति वा?
पठामि भगिनि. तत्र आधेयता अधिकरणता प्रतियोगित्वादेः वक्ष्यमाणः वा साकाङ्क्षः ससम्बन्धिकाः पदार्थाः. साकाङ्क्षः इत्यस्य कः अर्थः? यं श्रुत्वा एतत्
सम्बन्धी अन्यः कः इति जिञ्जासा सर्वदेव भवति. रामः पुत्रः इत्युक्तौ कस्य इति जिञ्जासा जायते. तत्र आधेयता अतिकरणता द्वयोः मध्ये सम्बन्धः कः इति वर्णयति. साधु वा?
आधेयता
अधिकरणता द्वयोः मध्ये प्रतियोगित्वादेः वक्ष्यमाणः वा साकाङ्क्षा इत्युक्ते किं
भगिनि? भवती स्थूलरीत्या अवगतवती, अपि च भवती स्पीकर् मध्ये अस्ति वा?
न,
इयर्फोन्
हेड्फोन् इयर्फोन् इयर्फोन् अस्तु अस्ति इयर्फोन् मध्ये अस्ति.
समीचीनं भगिनि, कुतश्चित् एको आगच्छति इति. सम्यक् अस्तु. वस्तुतः आधेयता अधिकरणता अपि च प्रतियोगित्वादयः वक्ष्यमाणः, यत्र कुत्रापि वक्ष्यमाणः इति पश्यामः तद् अग्रे आगच्छति भविष्यत्काले इति चिन्तयति. परन्तु आधेयता अपि च अधिकरणता कीदृशाः?
आधेयता
अधिकरणता कीदृशाः?
गुण सम्बन्धिकाः. रामः पुत्रः इत्युक्तौ कस्य इति जिज्ञासा जायते. इद कः अर्थः? यं श्रुत्वा एतत् सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति. एक आधेयता अत्र अस्ति चेत् अधिकरणता किम् इति प्रश्नम् उदेति.
कः
अर्थः इत्युक्ते यं श्रुत्वा अधेयता श्रुत्वा वा अधिकरणता श्रुत्वा वा एकं प्रश्नम् उदेति. अधेयता अधिकरणता द्वयोः मध्ये किं बन्धं सम्बन्धम् इति इति प्रश्नः उदेति.
हा, बहु सम्यक् अस्ति भगिनि. साकाङ्क्षा इत्युक्ते आकाङ्क्षया सह. आकाङ्क्षा इत्युक्ते इतोपि ज्ञातुम् इच्छा, इतोपि किमपि किं भगिनि?
जिज्ञासा सनन्तप्रत्ययः.
सत्यं, जिज्ञासा इति
जिज्ञासा सनन्तम्.
इतोपि ज्ञातुम् इच्छा यत्र यत्र भवति
जिज्ञासा,
तत्र तत्र साकाङ्क्षः पदार्थः इति उच्यते.
सम्बन्धिकाः
ससम्बन्धिकाः इत्युक्ते सम्बन्धेन सह
सम्बन्धेन सह.
अस्तु, भवती यद् उक्तवती एकं श्रुत्वा
एतत् सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति. एकं श्रुत्वा, यं श्रुत्वा इत्युक्ते एकं श्रुत्वा
आधेयता इति श्रुत्वा
अधिकरणता किम् इति चिन्तनं भवति.
सत्यं, तद्वदेव अधिकरणम् अथवा अधिकरणता इति श्रुत्वा
आधेयता किम् इति चिन्तनं.
समीचीनम्,
इति प्रश्नः उद्यति.
सम्यक्, तर्हि इमे द्वेपि ससम्बन्धिकाः, ससम्बन्धिकौ अथवा साकाङ्क्षौ. अस्तु, अत्र उदाहरणं किं दत्तं?
रामः पुत्रः इत्युक्तौ कस्य इति जिज्ञासा जायते. एकवाक्यं, रामः पुत्रः अस्ति इति श्रुत्वा द्वयोः मध्ये कः सम्बन्धः इति प्रश्नः जायते. साधु वा? राम एकः चित्रमस्ति,
रामः पुत्रत्वं कस्य केन निरूपितम् इति जिज्ञासा भवति.
किञ्चित् वदति वा भगिनि?
पुत्रं ये इत्युक्तौ रामः कः इति प्रश्नं. रामः रामे पुत्रत्वम् अस्ति. कस्य पुत्रत्वं केन इति प्रश्नाः निरूपितम् इति जिज्ञासा भवति.
सत्यम्
इति ज्ञातुम् इच्छा भवति. कस्य पुत्रः एतावत् प्रश्नः उदयति. कस्य पुत्रः केन पुत्रः इति प्रश्नः उदयति.
हा समीचीनम् इति कृत्वा रामः अपि साकांक्षः पदार्थः. पिता कः इति आगच्छति प्रश्नः इति उदाहरणत्वेन दर्शितम्. समीचीनं भगिनि. अस्तु अग्रे सुमित्रा भगिनि.
आं भगिनि पठामि. अतः सः किं पुत्रत्वम् अतः पुत्रत्वं पितृत्वं भार्यात्वम् इत्यादयः ससम्बन्धिकाः पदार्थाः. तथा एव आधेयता अधिकरणता इत्यादयः अपि ससम्बन्धिकाः. यज्ञदत्तः आदेयः इत्युक्तौ कस्य इति जिज्ञासा भवति. आसनमधिकरण इत्युक्तौ कस्य इति जिज्ञासा भवति. अतः एते अपि आदेयता अधिकरणता इत्यादयः ससम्बन्धिकाः. अन्यं पदार्थं सर्वदा अपेक्षन्ति. एकस्य एक अन्यः सम्बन्धिकाः अस्ति इति अतः जिज्ञासा भवति. अधिकरणता इत्युक्ते कस्य इति, आधेयता इत्युक्ते अपि कस्य इति. उदाहरणं यज्ञदत्तः इत्युक्ते आदेयः इति उक्तवन्तः, परन्तु कस्य इति जिज्ञासा उदेति. तथैव आसन्दः अस्ति, तत् अधिकरणता इति उक्तवन्तः. जिज्ञासा आगच्छति कस्य इति.
हा केवलम् एकं वक्तुम् इच्छामि. आसनम् अधिकरणम् अस्तु. वदनसमये आसनम् अधिकरणं प्रथमा विभक्ति. आसने अधिकरणता.
आसने अधिकरणता यज्ञदत्तः आदेयः. परस्परं प्रश्नः उदेति, जिज्ञासा आगच्छति.
अतः
ससम्बन्धिकाः.
हा समीचीनं भगिनि. इत्येव वार्ता. एकं ज्ञात्वा अन्यपदार्थस्य आकाङ्क्षा अपेक्षा भवति यत्र, तादृशाः ससम्बन्धिकाः अथवा साकाङ्क्षाः.
भगिनि अपेक्षन्ते इत्युक्ते
अपेक्षन्ते इच्छन्ति इति चिन्तयतु. एक्स्पेक्ट् इत्यस्मिन् अर्थे अपेक्षा.
भगिनि अत्र एकः प्रश्नः. अत्र सम्बन्धिकाः इति एव पर्याप्तं खलु? किमर्थं ससम्बन्धिकाः समानार्थं?
ससम्बन्धिकाः इत्युक्ते यथा सपत्नी अथवा सकुटुम्बम् इति वदामः खलु,
कुटुम्बेन सह इति वा?
हा तद्वत्. एते एते पदार्थाः आधेयता वा अधिकरणता वा प्रतियोगिता सम्बन्धेन सह आगच्छन्ति इति.
अस्तु.
स इति तदेव सूचयति सम्बन्धेन सह.
इत्युक्ते
इन् पेर्स् इत्युक्ते अपरस्य कस्यचित् अपेक्षा वर्तते सर्वदा.
धन्यवादः भगिनि.
अस्तु समीचीनं. सुमित्रा भगिनी तत्र फुट् नोट् इति अस्ति, तदपि पठति वा?
अस्तु भगिनि. एतद् विपरीतं यज्ञदत्तः अस्ति व्यक्तौ कस्य इति आकाङ्क्षा न सर्वदा भवति, अतः यज्ञदत्तः निराकाङ्क्षः। क्षम्यतां भगिनी, नावगच्छति। निराकाङ्क्षः
साकाङ्क्षः इत्युक्ते आकाङ्क्षया सह आकाङ्क्षा अस्ति खलु, निराकाङ्क्षः इति तद्विरुद्धार्थकपदम्।
आकाङ्क्षः इत्युक्ते अपि सम्यक् न अवगच्छति, विस्मृतवती। किमिति
किं किं न अवगतम्? आकाङ्क्षा इत्युक्ते एक्स्पेक्टेशन् इतोपि अस्ति तादृशः।
अस्तु,
साकाङ्क्षः इत्युक्ते तद् ज्ञात्वा, इत्युक्ते आधेयं ज्ञात्वा आधारः कः इति ज्ञातुम् इच्छामः खलु, तदेव आकाङ्क्षा। तदर्थम् आधेयः अथवा आधेयता इति साकाङ्क्षः इति वदन्ति, आकाङ्क्षया सह आगच्छति। किन्तु भवती यत् पठितवती अधुना, एतद्विपरीतम् इत्युक्ते एतत् सर्वं त्यक्त्वा यज्ञदत्तः अस्ति इत्येव, कश्चन यज्ञदत्तः। तस्य विषये अस्माकम् आकाङ्क्षा भवति वा न भवति? निराकाङ्क्षः। यदा वयं यज्ञदत्तः आधेयः इति वदामः तदा आकाङ्क्षः आकाङ्क्षा भवति,
तत्रैव जिज्ञासा आगच्छति,
इतोपि ज्ञातुम् इच्छा आगच्छति। अवगच्छति? अस्तु अस्तु। तर्हि एतावता ये केऽपि किमपि न उक्तवन्तः, यथा मुरळीमहोदय, प्रायः अग्रे चित्रद्वयमस्ति, तस्य किञ्चित् विवरणं दातुं शक्नोति वा? मुरळीमहोदय वक्तुमिच्छति?
अवश्यं।
हा, समीचीनं महोदय। अग्रे चित्र अग्रिमपुटे पञ्चमे पुटे चित्रद्वयम् अस्ति खलु? हा, तस्य विवरणं करोतु किञ्चित्।
अस्तु भगिनि। आदेयतात्वम् अधिकरणता
एवं तत्र अधोभागात् आरभ्य, यज्ञदत्तः इत्यस्मात् आरभ्य किञ्चित् वदतु।
यज्ञदत्तः कुत्र भवति भगिनि?
चित्रे एव यज्ञदत्ते किम् अस्ति?
यज्ञदत्ते आदेयः, आदेयता,
यज्ञदत्तः आधेयः, प्रथमाविभक्ति खलु,
यज्ञदत्तः आदेयः,
यज्ञदत्ते,
यज्ञदत्ते सप्तमी।
हा, किमस्ति यज्ञदत्ते? उपरि दर्शितम् आधेयता अस्ति,
आदेयता, आदेयता।
अपि च आवरणे नाम ब्राकेट्स् मध्ये त्वम् इति प्रदर्शितं खलु, त्वम् इति अपि एकः प्रत्ययः, यथा तल् इति प्रत्ययेन आधेयता इति पदं जातं, तद्वत् त्वम् इति उपयुज्य आधेयत्वम् इति अपि वक्तुं शक्नुमः। अस्तु, यज्ञदत्तः आधेयः, यज्ञदत्ते आधेयता अस्ति। इदानीं यज्ञदत्ते आधेयता इति निष्ठप्रयोगं कृत्वा वदतु। विद्या भगिनी पठितवती खलु, निष्ठा अपि च वर्ति इति पदद्वयम् उपयुज्य किं वदन्ति ते? यज्ञदत्ते आधेयता अस्ति इति यज्ञदत्तनिष्ठ आधेयता, अवगच्छति महोदय? मुरळी महोदय अस्ति वा?
द वाय्स् इस् नाट् क्लियर्, देयर्स् सम एको।
अस्तु, ओके, केन् यू हियर् मी नौ?
या, ऐ एम् एबल् टु हियर् यू, बट् देयर् इस् सम वाय्स् अट् दि बेक्, सो ऐ एम् सम ऐ एम् नाट् एबल् टु क्लियर्ली फालो दि क्वश्चन्स् अण्ड् अदर् थिङ्ग्स्।
हा, अस्तु।
Can I go back and join, rejoin again?
Sure, Madhya. Evam
karam. I will do that. Let me see.
Astu, astu. Samichinam. तर्हि सौम्या भगिनी
द्वितीय अहम् आसनं वदामि वा?
हा यज्ञदत्तः तदपि वदतु किञ्चित्.
यज्ञदत्तः आज्ञेयः अस्ति, यज्ञदत्ते आदेयः, यज्ञदत्ते आदेयता अस्ति, नो चेत् आदेयत्वम् अस्ति. तादृशम् आसनम् अधिकरणम् अस्ति.
अभ्यासार्थं निष्ठपदम् उपयुज्य वदतु.
यज्ञदत्तनिष्ठ आदेयता तत्त्वा.
हा समीचीनं, तावदेव
आदेयता, यज्ञदत्तवत्ति आदेयता.
समीचीनं,
वाक्यद्वयमस्ति. तादृशम् आसनम् अधिकरणम् अस्ति. अधिकरणे आसने अधिकरणता अस्ति, नो चेत् अधिकरणत्वम् अस्ति. प्रति ध्वनि आगच्छति महोदय भगिनी.
मुरळीमहोदय.
हलो,
महोदय प्रतिध्वनिः आगच्छति. भवान् स्पीकर् मध्ये अस्ति वा?
नो.
यु आर् इन् इयर् फोन्?
यस्.
अस्तु, इदानीं म्यूट् करोतु, अनन्तरम् अन्म्यूट् कृत्वा वक्तुं शक्नोति. अस्तु समीचीनं. भगिनी वदतु.
आसनम् अधिकरणम् अस्ति, आसने अधिकरणता अस्ति, नो चेत् अधिकरणत्वम् अस्ति.
तदेव निष्ठा उपयुज्य.
आसन आसननिष्ठ अधिकरणता आसने वर्तते.
तावदेव, आसने वर्तते,
आसने वर्तते
इति आसननिष्ठा अधिकरणता इति वदन्ति.
अन्यपि
अग्रे गच्छतु. एतावत्
तत्र स्पष्टम्.
अस्तु भगिनि अग्रे.
तत्र साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपकः, निरूपक इत्युच्यते. तत् किम् आकाङ्क्षया सह पदार्थः किम् अस्ति, तत् अपेक्षता निरूपणं कृतवन्तः इति उक्तवन्तः. तादृशं वा?
अत्र साकाङ्क्षपदार्थः
आकाङ्क्षा सह किं पदार्थः अस्ति?
कुतश्चित् प्रतिध्वनिः आगच्छति. अस्तु, अहं यावत् वदामि सर्वान् म्यूट् करोमि. अस्तु, साकाङ्क्षः पदार्थः यम् अपेक्षते इत्युक्ते आदेयता इति साकाङ्क्षः पदार्थः, सः कमपि अपेक्षते. कम् अपेक्षते? अपरं पदार्थम् अपेक्षते. सः अपरः पदार्थः निरूपकः इति उच्यते, यतोहि सः अपरः पदार्थः निरूपणं करोति. यः निरूपयति सः निरूपकः. तावद्. अस्तु भगिनि, एतम् अर्थं मनसि निधाय अग्रे वदतु, अग्रिमचित्रस्य विवरणं करोतु. सम्यक्.
आदेयता अधिकरणता निरूपणं करोति.
हा, आदेयता अधिकरणतायाः निरूपणं करोति. निरूपकः कः?
निरूपकः आदेयः. आदेयता. अधिकरणता आधेयता निरूपकं करोति.
निरूपणं करोति.
निरूपणं करोति. निरूपणम् अधिकरणता निरूपणमस्ति.
अधिकरणता निरूपकः.
निरूपकः अस्ति.
हा, अधिकरणता आधेयतां निरूपयति अथवा आधेयतायाः निरूपणं करोति. अतः अधिकरणता इति निरूपकः.
द्वयमस्ति किल, किं भेदः? आदेयता अत्र वामतः दत्तमस्ति, तादृशम् अन्यपि दत्तमस्ति किं भेदः
इति ज्ञातुम् अग्रे पठतु निरूप्यकनिरूप्यभावः इति
निरूप्यनिरूपकभावव्यवस्थापनं तत्र लोके निरूपकः इत्यनेन यः वदति सः बोध्यते यस्य विषये उच्यते सः निरूप्यः तत्र साम्प्रदायिकमुदाहरणं यथा व्यासः कृष्णकथां निरूपयति हरि ओम् साधारणतया लोके किं यः किं वदति तत् निरूपकः बोधयति
निरूपकः इत्युक्ते किमपि कार्यं करोति निरूपणकार्यं करोति यः वदति सः
निरूपकः
अग्रे
यस्य विषये उच्यते सः निरूप्यः किं विषयं सः उच्यते तत् निरूप्यः इति उच्यन्ते
इदानीम् उपरितनचित्रविषये भवती पृष्टवती तत्र वदतु निरूपकः कः निरूप्यः कः इति
निरूपकः आदेयता निरूपकः अधिकरणता निरूप्यः
हा बहु समीचीनं तदनन्तरं
अधः दत्तम् अस्ति तत्र अधिकरणता निरूपकः आदेयता निरूप्यः
हा समीचीनं भगिनि इत्येव भेदः तत्र एकस्मिन् सन्दर्भे आधेयता अधिकरणतां निरूपयति अपरस्मिन् सन्दर्भे अधिकरणता आधेयतां निरूप्यति तर्हि परस्परनिरूपकनिरूप्यभावः अस्ति उभयोः अस्तु किञ्चित् साम्प्रदायिक उदाहरणविषये वदतु
व्यासः कृष्णकथां निरूपयति व्यासः निरूपकः कृष्णकथां निरूप्यः समीचीनं
हा बहु समीचीनं भगिनि इदानीं व्यासे किमस्ति
व्यासे आदेयता
न भगिनि चित्रे पश्यतु
निरूपकता निरूपकता अस्ति कृष्णकथायां निरूप्यता अस्ति
बहु समीचीनं यथा आधारः इत्यस्य भावः आधारता आधेयः इत्यस्य भावः आधेयता तद्वत् निरूपकः इत्यस्य भावः
निरूपकता
निरूप्यः इत्यस्य भावः
निरूप्यता
समीचीनम् इदानीं निष्ठा उपयुज्य वदतु
व्यासः निष्ठा निरूपक निष्ठा निरूपकता कृष्णकथा निरूप्यता निष्ठा निरूप्यता वर्तते
हा समीचीनम् इति एव अस्ति व्यासनिष्ठ समस्तपदं व्यासः निष्ठ इति न वदामः
अस्तु कृष्णकथा निष्ठा निरूप्यता वर्तते
हा सम्यक् इति एव वार्ता अस्ति परन्तु अत्र भेदः कः
किं भेदः
पूर्वस्मिन् चित्रे निरूपकः उभयत्र आसीत् निरूपकता अधेयतायाम् अधिकरणतायाम् अत्र
अस्तु तादृशं निरूपक व्यासः निरूपकता अपि निरूपकता अपि अस्ति निरूप्यता अपि भविष्यति
तथा अस्ति वा चिन्तयतु अग्रिमवाक्यं पठतु
अत्रापि पूर्ववत् निष्ठपदप्रयोगेन व्यासनिष्ठनिरूपकता निरूप्यता तु कृष्णकथानिष्ठा इति निरूपणं भवति व्यासः निरूपकता कृष्णकथा निरूप्यता भवति
इति तु सत्यं किन्तु अग्रे पश्येम निरूपकनिरूप्यभावः उभयदिशि गच्छति वा एकस्मिन् दिशि गच्छति वा इति
एकस्मिन् दिशि एव गच्छति.
अस्मिन् उदाहरणे समीचीनम् एकस्मिन् दिशि एव, यतोहि कृष्णकथा व्यासं न निरूपयति खलु.
अस्तु आम्,
व्यासः एव कृष्णकथां निरूपयति.
आम्
समीचीनम्. अस्तु अग्रे प्रिया भगिनी पठति.
तर्हि भगिनी अत्र क्षम्यतां,
वदतु भगिनि.
अत्र ससम्बन्धिकाः नास्ति खलु?
न भगिनि, अत्र न
सन्ति.
हा, परन्तु ससम्बन्धिकानां मध्ये निरूपकनिरूप्यभावः आगच्छति, तद्वद् तदर्थम् उदाहरणमाध्यमेन प्रदर्शितम्.
ओ अस्तु अस्तु, अस्तु
अस्तु, सम्यक्. तर्हि अग्रे प्रिया भगिनी.
अस्तु भगिनि, अस्मिन् उदाहरणे व्यास एव निरूपकः, कृष्णकथा च निरूप्या एव, परन्तु आधारता आधेयता च इत्ययनयोः परस्परं निरूपकता निरूप्यता च भवति. आधेयता केन निरूपिता इति प्रश्न इव अधिकरणता केन निरूपिता इति प्रश्नोऽपि खलु तुल्यः. अतः उभयोः परस्परं निरूप्यनिरूपकभावः भवति.
भगिनि
प्रयत्नं करोमि.
अवश्यम्.
इदानीम् उदाहरणं दत्तवन्तः इति, व्यासः कृष्णकथां निरूपयति इति, तद् उदाहरणे वयं दृष्टवन्तः व्यासः एव निरूपकः अस्ति इति. सः निरूप्यः न.
हा, भवती समीचीनतया अवगतवती. निरूपकः तत्र गायकः नायकः इति वदामः खलु, यः गायति सः गायकः.
अस्तु,
हा तद्वद् णुल् इति प्रत्ययः किल, निरूपकः गायकः तत्र तत्र तद्वदेव, यः किमपि करोति सः कः इति चेत्, कः इति अन्ते पश्यति चेत्, गायकः नायकः इत्युक्ते किमपि करोति सः इति
करोति. निरूपणं करोति तदेव निरूपकः.
निरूप्या का कृष्णकथा. यतोहि कृष्णकथा व्यासं न निरूपयति इत्युक्ते, कृष्ण व्यासः कृष्णकथाम् इति एकं लिखितवान्, किन्तु कृष्णकथा भिन्नमपि बहु किमपि लिखितवान् खलु. तर्हि कृष्णकथा न आवश्यकी व्यासस्य निरूपणार्थं, किन्तु कृष्णकथायाः निरूपणार्थं व्यासः आवश्यकः. तदर्थं व्यासः निरूपकः, कृष्णकथा निरूप्या.
पुनरपि एकवारं भगिनि.
किं भगिनि, कस्य विषये? निरूपकनिरूप्य इति वा?
निरूप्यविषये अधुना कथयति खलु.
हा, इत्युक्ते निरूपकः इत्युक्ते यः निरूपणं करोति. अस्तु, व्यासः कृष्णकथायाः निरूपणं करोति. कृष्णकथा व्यासस्य निरूपणं न करोति. इत्युक्ते कृष्णकथा विजय भगिनी, भवत्या म्यूट् करणीयं, क्षम्यताम्. हा, व्यासः कृष्णकथायाः निरूपणं करोति, यतोहि व्यासः केवलं कृष्णकथां न लिखितवान्, बहु किमपि लिखितवान्, पुराणानि लिखितवान्, एतत् सर्वं लिखितवान् किल. तर्हि केवलं कृष्णकथया व्यासस्य निरूपणम् इति न, व्यासः स्वतन्त्रतया स्थातुं शक्नोति, किन्तु कृष्णकथा तथा नास्ति. कृष्णकथायाः निरूपणं व्यासः कृतवान् इति कृत्वा व्यासः निरूपकः. अपि च यस्य विषये सः निरूपणं कृतवान्, सा निरूप्य अत्र कृष्णकथा इति. विजय भगिनी अधुना बुद्धम्
अवश्यम्
अस्तु समीचीनम्
अस्तु धन्यवादः
सम्यक् अस्तु प्रिया भगिनी अधुना अग्रे पठतु.
परन्तु आधारता आधेयता च इत्यनयोः परस्परं निरूपकता निरूप्यता च भवति. आधारता आधेयता एतत्
उपरि एकं
बोथ वेस् इट् गोस् बोथ वेस् राइट
परस्परम् इत्युक्ते उभयदिशि
उभयदिशि.
उपरि एकं चित्रम् आसीत् खलु सौम्या भगिनी यद् उक्तवती आधेयता निरूपकः अधिकरणता निरूप्य पुनः अधिकरणता निरूपकः अधेयता निरूप्य
निरूप्य
आधाराधेयत भावस्थले परस्परम्
अस्ति. एव आधेयता केन निरूपिता इति प्रश्न इव अधिकरणता केन निरूपिता इति प्रश्नोऽपि खलु तुल्यः. परस्परम् अस्ति इति कारणेन
इति कारणेन
आधेयता केन निरूपिता भवति प्रश्नः भवति. तथा अधिकरणता केन निरूपिता इत्यपि प्रश्नः भवति. साधु वा
समीचीनं. परन्तु व्यासः केन निरूपिता इति वदामश्चेत् व्यासस्य निरूपणार्थं बहु किमपि आगच्छति, केवलं कृष्णकथा नास्ति खलु. परन्तु आधाराधेयता भावस् आधाराधेयभावस्थले तथा नास्ति. आधेयता केन निरूपिता इति प्रश्नः अपि अस्ति, अधिकरणता केन निरूपिता इति प्रश्नः अपि अस्ति. तदर्थम् इमौ द्वौ साकाङ्क्षौ साकाङ्क्षपदार्थौ.
अस्तु भगिनि
अस्तु भगिनि अग्रे.
अतः उभयोः परस्परं निरूप्य निरूपकभावः भवति. यदा पूर्वं चित्रं वयं दृष्टवन्तः आधेयता निरूपकः अधिकरणता निरूप्यः अथवा अधिकरणता
अत्र मनसि भवेत् निरूपकः इति तद्वदेव, किन्तु अधिकरणता इति स्त्रीलिङ्गे अस्ति खलु, तर्हि निरूप्य इति
निरूप्य निरूप्य समानमेव अधिकरणता निरूपक भवति वा
निरूपकः
निरूपकः आधेयता निरूप्यः
निरूप्या
निरूप्या
स्त्रीलिङ्गे वस्तुतः निरूपिका निरूपिका इति अपि स्त्रीलिङ्गे अपि वक्तुं शक्नुमः. गायकः गायिका तद्वद्, किन्तु एवमेव तत्र निरूपकः इति स्वीकृतं यतोहि पदार्थः पुल्लिङ्गपद पदम् इति चिन्तयतु. समीचीनं
भगिनि क्षम्यताम् अन्तिम पदस्य वाक्यस्य अर्थम् अहं न अवगच्छामि. उभयोः परस्पर अतः उभयोः परस्परं निरूप्य निरूपक निरूपकभाव भवति. एतत् न परस्परं न गच्छति किल, निरूप्य निरूपकभावः निरूपकता निरूप्यता भावं
किमर्थं तथा वदति?
व्यासः व्यासः कृष्णकथा अस्ति, व्यासः निरूपकथा अस्ति कृष्णकथायाः, परन्तु कृष्णकथायाः निरूप्यता एव अस्ति किल, परस्परं न.
तत् समीचीनं भगिनि, किन्तु तदनन्तरं किं पठितम् अस्माभिः? प्रिया भगिनी पठितवती परन्तु आधारता आधेयता अनयोः परस्परं निरूपकता इत्यादिकं किल. एतद् अन्तिमवाक्यं तस्य विषये
आधार आधेयभाव अस्ति.
अधुना सङ्गच्छते खलु, समीचीनमस्ति, परस्परमेव सम्यक् अस्ति. भगिनी भवत्यापि म्यूट् करणीयं कृपया. धन्यवादः. न सर्वेषां तर्हि धन्यवादः. अस्तु, इतः अग्रे इतोपि सुदृढरीत्या निरूप्यभावस्य प्रयोगः कुत्र भवति इति पश्येम. रघुपतिमहोदय, अग्रिमपुटे अग्रिमपरिच्छेदं पठति वा?
भगिनि, इह यज्ञदत्त तत्र इह यज्ञदत्तः आधेयतावान् इति वक्तुम् आश्रय इति पदम् उपकरोति, तथा च आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः आसनम् इति उभयं साधु. एवञ्च निरूप्य निरूपकसम्बन्धः ज्ञातश्चेत् आधाराधेयसम्बन्धः अपि ज्ञायते, तथा च प्रकृते अपि द्रव्ये गुणः तिष्ठति इत्यत्र आधार आधेयभावः सुज्ञेयः.
समीचीनम्. अत्र किञ्चित् मन्दं मन्दं गच्छामः. प्रथमवाक्यं किमस्ति महोदय?
इह यज्ञदत्तः आधेयतावान् इति वक्तुम् आधेयतवान् आधेयतवान् इति वक्तुम् आश्रय इति पदम् उपकरोति.
हा, उपरितनचित्रं पश्यतु. तस्मिन्नेव पुटे उपरितनभागे आधेयतावान् इत्यस्य अर्थः कः?
यस्मिन् आधेयः अस्ति सः आधेयतावान्.
हा, बहु समीचीनं महोदय. धनवान् इति यथा वदामः, मतुपिति प्रत्ययः, यस्य अथवा यस्मिन् धनः सः धनवान्. यज्ञदत्ते किमस्ति?
आधेयता अस्ति,
अतः यज्ञदत्तः
आधेयवान् आधेयतावान्
आधेयतावान्. समीचीनम्. अत्र आधेयवान् इति तु जानीमः, बुद्धिमान्, धनवान्, गुणवान् इति सामान्यप्रयोगः, मतुपिति प्रत्ययः वान् इति, यस्मिन् गुणः सः गुणवान् तथा. किन्तु अत्र न्यायभाषायाम् इतोपि एकः शब्दः उपयुक्तः, आश्रयः. आधेयतावान् यज्ञदत्तः अथवा आधेयताश्रयः यज्ञदत्तः, उभौ अपि साधु. हा, यज्ञदत्त निष्ठ आधेयत. तत्र पश्यन्तु, उपरि गमनार्थं निष्ठ, एतावता वयं अभ्यासं कृतवन्तः खलु, यज्ञदत्तनिष्ठ आधेयत, आसननिष्ठ अधिकरणत, उपरि गमनार्थं निष्ठ, अधोगमनार्थं हा. समीचीनं महोदय. अधुना एतत् सर्वं मनसि निधाय, मनसि भवेत् यद् उपरि गमनार्थं निष्ठ, निष्ठ किं सूचयति? यत्किमपि अस्ति इति खलु निष्ठ. वस्तुतः वान् अपि तदेव सूचयति, परन्तु अधोगमनार्थं वान् अथवा आश्रयः, उपरि गमनार्थं निष्ठ इति मनसि भवेत्. तदर्थमेव सर्वत्र पुस्तके उपरि ऊर्ध्वगामिनी शरे, नाम यत्किमपि एरो उपरि गच्छति, शरः इत्युक्ते एरो, शरः उपरि गच्छति चेत् तत्र निष्ठ इति लिखितं, शरः अधो गच्छति चेत् वान् आश्रयः. अस्तु, समीचीनं महोदय. अधुना अग्रिमवाक्यं.
तथा च आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः.
हा, तावत् तावत् किञ्चित्.
आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः
इति यज्ञदत्तस्य वर्णनम्.
यजुनतस्य वर्णनम् आसरण इष्ट अधिकरणता निरूपित आधेयताश्रयः यज्ञदत्तः ओके
हा इदानीं यज्ञदत्तः कीदृशः
यज्ञदत्तः आसननिष्ठः अधिकरणरूप अधिकरणता निरूपित अधिकरण अधिकरणता निरूपित यज्ञदत्तः
तावद् तावत् पर्याप्तं नास्ति अधिकरणता एकनिमिष अधिकरणता किं निरूपयति
अधिकरणता आसनं निरू
न पूर्वस्मिन् पुटे आधेयतां निरूपयति अधिकरणता अधिकरणता निरूपयति अधिकरणतां निरूपयति आधेयता तयोः मध्ये निरूपकनिरूप्यभावः खलु न तु अधिकरणता अपि च यज्ञदत्तः तयोः मध्ये निरूपकनिरूप्यभावः नास्ति निरूपकनिरूप्यभावः कयोः मध्ये समीचीनं तदर्थमेव मनसि सर्वदा सावधानतया भवेत् यद् आसननिष्ठ अधिकरणता निरूपित आधेयता ततः अग्रे यत्किमपि अस्ति वक्तव्यं परन्तु निरूपित इति शब्दः आगच्छति चेत् निरूपितशब्दस्य पार्श्वे वामदिशि वा अथवा दक्षिणभागे वा साकाङ्क्षापदार्थौ एव भवेताम् निरूपितशब्दस्य वामभागे किमस्ति
आधेयता
दक्षिणभागे
आधेयता
निरूपित इति मध्ये अस्ति चेत् तस्य परितः साकाङ्क्षाशब्दौ भवेताम् न तु यज्ञदत्तः न तु आसनम् निरूपकनिरूप्यभावः तयोः मध्ये अस्ति परन्तु यज्ञदत्तः कीदृशः इति अहं प्रश्नं करोमि चेत् उत्तरं किम् एकं दीर्घं वाक्यमस्ति खलु
आसननिष्ठ अधिकरणता निरूपित आदेयताश्रयः यज्ञदत्तः
एतत् सर्वं वक्तुं यज्ञदत्तस्य विवरणार्थम् एतत् सर्वम् अपेक्षितमस्ति यज्ञदत्त इति कश्चन पुरुषः किन्तु अस्माकं प्रसङ्गे अस्माकं काण्टेक्स्ट् मध्ये यज्ञदत्तः आधेयः अस्ति यज्ञदत्तस्य आधेयः यज्ञदत्ते विद्यमान आधेयता कीदृशी इति चेत् आसननिष्ठ अधिकरणता निरूपित आधेयता पुनः तादृश्याः आधेयतायाः आश्रयः यज्ञदत्तः बुद्धम्
भगिनी क्षम्यतां निष्ठता इत्युक्ते किम्
निष्ठा इत्युक्ते किम् इति पृच्छति वा निष्ठा इत्युक्ते वर्तते इति आसने किम् आसने किमस्ति
आसने यज्ञदत्तः अस्ति
न भगिनि अधिकरणता
अधिकरणता अधिकरणता अस्ति
अतः
आदेयता आदेयता अस्ति आसन्ते आदेयता अस्ति
एकनिमिषं भ्रमः मास्तु प्रथमं भवती समीचीनम् उक्तवती समीचीनया आसने किमस्ति
अधिकरणता अस्ति
हा आसनम् अधिकरणं खलु
आम् आम्
अतः आसननिष्ठ अधिकरणता
आसननिष्ठ अधिकरणता आसने अधिकरणता वर्तते इति अन्यथा वक्तुं शक्यते वा
आसननिष्ठ अधिकरणता अस्तु अस्तु तया निरूपित आधेयता
अस्तु
तादृश आधेयतायाः आश्रयः यज्ञदत्तः
अस्तु सम्यक् धन्यवादः
इति यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः आसनमिति उभयं साधु यथा आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रय यज्ञदत्त तादृश यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणता अधिकरणाताशय आसनम् इति उभयं साधु.
समीचीनम्. आसनं कीदृशम् इति प्रश्ने कृते उत्तरं किम्?
आसनम् आदेयनिरूपित
यज्ञदत्तनिष्ठ आधेयता
आधेयनिरूपित अधिकरणताश्रय अधिकरणता
श्रयः आसनम्
अधिकरणता आसनम् आसनम्
अत्रापि द्वितीयचित्रस्य विवरणं यज्ञदत्तनिष्ठाधेयता इति अस्ति द्वितीयचित्रे. उपरि गमनार्थं निष्ठ, तदनन्तरं निरूपित, अधिकरणतापर्यन्तं प्राप्तवन्तः, तदनन्तरम् अधोगमनार्थम् आश्रयः. तत्सर्वम् उपयुज्य यज्ञदत्तनिष्ठाधेयता निरूपित अधिकरणताश्रयः आसनम् इति आगच्छति. अस्तु, अग्रे.
तथा च प्रकृते अपि द्रव्ये गुणः तिष्ठति इत्यत्र आधार आधेयभावः सुज्ञेयः.
हा, इति अवलोकयामः अग्रे अवलोकयामः. एतावत् पर्यन्तं स्पष्टमस्ति वा निष्ठा कुत्र वक्तव्यम्, आश्रयः कुत्र वक्तव्यम् इति?
स्पष्टम्.
हा, एवं तदर्थमेव निरूप्यनिरूपकसम्बन्धः ज्ञातः चेत् आधाराधेयभावः अपि बहु सुलभतया ज्ञातः भवति. निरूप्यनिरूपकसम्बन्धम् अपि च आधाराधेयभावसम्बन्धम् एतत् सर्वं प्रकटीकर्तुमेव निष्ठा, आश्रयः एतादृशपदानि सन्ति न्यायशास्त्रे. अस्तु, तर्हि अत्र बहवः समासाः सन्ति, तस्य विषये किञ्चित् चर्चां कुर्मः. आसननिष्ठ अधिकरणता निरूपिताधेयताश्रयः इत्यत्र विद्याभगिनी साहाय्यं करोति वा तत्र?
भगिनी, मम एकः प्रश्नः अस्ति, क्षम्यताम्. अत्र आधेयता आश्रयः यज्ञदत्त तद् मया अवगतं. तत्र अधिकरणता आश्रयः आसनं, तत्र अधिकरणता आश्रयम् आसनम् इति नास्ति वा?
प्रश्नः समीचीनः भगिनि. आश्रयः इति नियतलिङ्गशब्दः. यथा मित्रम्, एषः मम मित्रम् इति वक्तुं शक्नोमि, एषा मम मित्रमपि वक्तुं शक्नोमि, खलु? वस्तुतः आश्रयः तादृशः नियतलिङ्गकशब्दः.
अस्तु,
तत्र
आश्रयम् आश्रयमपि वक्तुं शक्नोमि, आश्रयः अपि वक्तुं शक्नोमि.
न न न, नियतलिङ्गकः इत्युक्ते तस्य लिङ्गं न परिवर्तते. आधेयताश्रयः यज्ञदत्तः, आधेयताश्रयः आसनम्, आसनं पुल्लिङ्गं जातम्.
अस्तु,
मित्रवत् एव, मित्रम्. अहं पुरुषम् उद्दिश्य वक्तुं शक्नोमि एषः मम मित्रम् इति.
अस्तु अस्तु,
तत्र भेदः नास्ति, खलु? महिलाम् उद्दिश्य वक्तुं शक्नोमि इति वार्ता. अस्तु, अत्र भगिनी किञ्चित् वक्तुं शक्नोति वा तत्र समासाः के के इति?
कुत्र भगिनी?
आसननिष्ठ अधिकरणता निरूपित अधेयताश्रयः इत्यत्र.
आसननिष्ठ अहम् अधिकं न जानामि भगिनि समासस्य विषये, किञ्चित् एव जानामि.
चिन्ता नास्ति, यत्किमपि अवगन्तुं शक्नोति किञ्चित्.
आसननिष्ठ अधिकरणता इत्युक्ते तत्र आसने
निष्ठ, बहु समीचीनम्. सप्तमी तत्पुरुषसमासः. अनन्तरम्
अधिकरणता निरूपित.
इतोपि एकं वक्तव्यमस्ति, आसने निष्ठ इति सप्तमी तत्पुरुषसमासः, मिलित्वा आसननिष्ठ. पुनः आसननिष्ठा अधिकरणता,
तत्र कर्मधारय.
हा, सम्यक्, इति कर्मधारयसमासः. अनन्तरम्
अधिकरणता निरूपित अधिकरणतया निरूपित.
हा, बहु समीचीनं. तर्हि तृतीय तत्पुरुषसमासः अधिकरणतया इति तृतीयाविभक्त्याः लोपः जातः, खलु समासमस्तपदे? अतः तृतीया तत्पुरुषसमासः आसने निष्ठा सप्तमी तत्पुरुषसमासः आसननिष्ठा तदनन्तरम् आसननिष्ठा अधिकरणता इति कर्मधारयसमासः आसननिष्ठ अधिकरणतया निरूपित इति तृतीया तत्पुरुषसमासः अन्ततो गत्वा किमस्ति
आधेयता आश्रयः
न पुनः निरूपित अपि च आधेयता तयोः मध्ये अपि समासः अस्ति
निरूपिता निरूपिता आधेयता पुनः कर्मधारय वा
सत्यं समीचीनं हा पुनः कर्मधारयः तदनन्तरम् आधेयतायाः आश्रयः आधेयताश्रय षष्टि
तत्पुरुषः
इति बहवः समासाः सन्ति अत्र अस्तु अपि च भगिनी यद् पृष्टवती आधेयताश्रयः यज्ञदत्तः अपि च आधेयताश्रयः आसनं तत्र लिङ्गभेदः न जातः खलु पुल्लिङ्गे एव आसीत् तर्हि विशेषणविशेष्यभावस्थले वयं जानीमः एकं प्रसिद्धं श्लोकमस्ति यल्लिङ्गं यद्वचनं या च विभक्ति विशेषस्य तल्लिङ्गं तद्वचनं सा च विभक्ति विशेषणस्यापि इति विशेषणविशेष्यभावस्थले लिङ्गवचनम् इत्यादिकं समानं भवति प्रायशः उन्नता बालिका अथवा सुन्दरी बालिका सुन्दरः बालकः परन्तु अत्र आधेयताश्रयः यज्ञदत्तः इति विशेषणविशेष्यभावः नास्ति उद्देश्यविधेयभावः अस्ति इति वदामः उद्देश्यविधेयभावः नाम यज्ञदत्तम् उद्दिश्य तस्मिन् आश्रयत्वं विदध्मः अथवा आरोपयामः तादृशभावः अस्ति अत्र तदर्थमेव अधिकरणताश्रयः आसनम् इति उक्तम् तत्रापि विशेषणविशेषभावः नास्ति पुल्लिङ्गपदम् आश्रयः आसनमिति नपुंसकलिङ्गपदं तयोः मध्ये अपि उद्देश्यविधेयभावः अस्ति आसनं दृष्ट्वा अथवा आसनम् उद्दिश्य तस्मिन् आश्रयत्वं विदध्मः आरोपयामः इति उद्देश्यविधेयभावः समीचीनं वा एतावता अस्तु बहु किमपि उक्तं चेत् समासविषये एतद् त्यजन्तु चिन्ता नास्ति
भगिनी उद्देश्यभावः पुनः एकवारं कृपया
हा एकं सरलम् उदाहरणं ददामि भगिनि एषः मम मित्रम् इति अस्तु अत्र मित्रम् इति अथवा एषा मम मित्रम् इति वदामि तत्र मित्रम् इति नपुंसकलिङ्गे अस्ति एषा इति स्त्रीलिङ्गे अस्ति खलु तत्र वस्तुतः विशेषणविशेषभावः नास्ति मम पुरतः कापि महिला अस्ति ताम् उद्दिश्य अहं तस्मिन् मित्रत्वम् आरोपयामि एषा मम मित्रमिति वदामि चेत् तत्र उद्देशविधेयभावः बुद्धं वा सुमित्रा भगिनी
किञ्चित्
इत्युक्ते विशेषणविशेषभावः इव इति चिन्तयतु किन्तु देर् इस् अ स्लैट् डिफ्रेन्स् इन् द मीनिङ्ग् दट्स् आल् अस्तु
उद्देश्यविधेयभावः खलु
हा उद्देश्यविधेयभावः मम पुरतः कोऽपि अस्ति तं दृष्ट्वा अहं तस्मिन् किमपि आरोपयामि अस्तु मित्रत्वम् आरोपयामि अथवा यज्ञदत्ते आश्रयत्वम् आरोपयामि आधेयताश्रयः यज्ञदत्तः इति उक्त्वा परन्तु विशेषणविशेषभावस्थले किं भवति इति चेत् सुन्दरः बालकः इति वदामि अस्तु तत्र बहवः बालकाः सन्ति तेषु बालकेषु एकः सुन्दरः अहं किमपि कोऽपि पर्टिक्युलर् बालकम् उद्दिश्य किमपि न वदामि विशेषणविशेषभावस्थले तादृशनियमः अस्ति बृहत् समूहात् पृथक्करणम् इति अस्तु उद्देशविधेयभावस्थले तथा नास्ति इति कश्चन भेदः अस्तु समीचीनं तर्हि अत्र पञ्चनिमिषेषु किञ्चित् अभ्यासं कुर्मः अस्तु एतत् सर्वं वयं ज्ञातवन्तः द्रव्यनिरूपणार्थं गुणनिरूपणार्थम् इति अग्रिमचित्रम् अस्ति तत्र का सङ्गीता भगिनी इति अस्ति वा सङ्गीता भगिनी अस्ति, अन्म्यूट् करोतु. नो चेत् हरिप्रिया भगिनी अस्ति वा? हरिप्रिया भगिनी
अस्मि भगिनी.
हा अस्ति. इदानीं महोदय रघुपतिमहोदय किम् उक्तवान्? यज्ञदत्तविषये उक्तवान् खलु. आसननिष्ठाधिकरणता निरूपित
आधेयताश्रयः यज्ञदत्तः इति.
हा वदतु एकवारं.
यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः आसनम् इति उभयं साधु.
तद्वद् तत्र अधोभागे इतोपि एकं चित्रमस्ति, द्रव्यम् अपि च गुणः, तस्य विषये वदतु.
द्रव्ये गुणः अस्ति, अतः द्रव्यम् अधिकरणं, गुणम् आधेयम्.
गुणः आधेयः
द्रव्यनिष्ठ अधिकरणता गुणं निरूपयति.
न न न, द्रव्यनिष्ठ अधिकरणता किं निरूपयति?
आश्रयम्
सर्वदा मनसि भवेत्. अधिकरणता आधेयतां निरूपयति, आधेयता अधिकरणतां निरूपयति. निरूपितशब्दस्य परितः, आन् बोत् सैड्स् आफ् निरूपित, देल् आल्वेस् बि साकाङ्क्षपदार्थाः. सो वन् केन् नेवर् से अधिकरणता गुणं निरूपयति. नो, अधिकरणता आधेयतां
निरूपयति.
ततः अग्रे अस्माभिः गन्तव्यं कथञ्चित्. तदर्थमेव वान् अथवा आश्रयः इति पदद्वयम् अस्तु. इदानीं द्रव्यम् इत्यस्मात् आरभ्य गुणपर्यन्तं गच्छतु. शरम् अनुसृत्य
द्रव्यनिष्ठ अधिकरणता गुणनिष्ठ आधेयतां निरूपयति.
यथा दीर्घवाक्यमासीत् यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनं, तद्वत्
द्रव्यनिष्ठ अधिकरणता द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः.
हा बहु समीचीनम्. आधेयतावान् गुणः अथवा आधेयताश्रयः गुणः इति. गुणः कीदृशः इति प्रश्ने कृते भवत्याः उत्तरं किं स्यात्?
गुणः आधेय
न, तद् दीर्घवाक्यम् उपयुज्य वक्तव्यम्.
गुणनिष्ठ आधेयता निरूपित.
एकनिमिष, गुणः कीदृशः इति प्रश्नः खलु. तर्हि अस्माकं टार्गेट् अस्ति गुणः.
गुणः आधेयः.
एकनिमिषः, तावत् न पर्याप्तं. द्रव्यतः आरभ्य अधिकरणतां सूचयित्वा गुणः कीदृशः इति वक्तव्यः, यत् भवती उक्तवती. द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः. इति प्रश्नः आगच्छेत् इति उत्तरम् आगच्छेत् अस्तु. इदानीं मम प्रश्नः अस्ति, द्रव्यं कीदृशं, तत्र किं वदति?
द्रव्यम् अधिकर
हा तदेव. तत्र अधोभागे इतोपि एकं चित्रमस्ति, पश्यतु.
द्रव्यम् आश्रयः, सारि, द्रव्यम् आश्रयः, द्रव्ये गुणः तिष्ठति.
सत्यम्. एतत् सर्वं निष्ठा आधेयता निरूपित अधिक एतत् सर्वम् उपयुज्य वदतु. गुणः इत्यस्मात् आरभ्य चित्रे अस्ति सर्वं.
गुणनिष्ठ आधेयतानिरूपित अधिकरणता द्रव्यम्.
अधिकरणताश्रयः द्रव्यम्.
अधिकरणताश्रयः द्रव्यम्.
मनसि सर्वदा भवेत् अधोगमनार्थं, फार् गोयिङ्ग् डौन्वर्ड्स्, आश्रयः अथवा वान्वति तत् स्यात्. उपरि गमनार्थं निष्ठ गुणनिष्ठ आधेयता निरूपित अधिकरणता आश्रयः द्रव्यम् अथवा गुणनिष्ठ आधेयता निरूपित अधिकरणतावत् द्रव्यम्. वत् इति किमर्थम् उक्तम् अत्र?
मतु प्रत्ययम्।
हा, अपि च द्रव्यं नपुंसकलिङ्गपदं खलु। गुणस्य विषये वान् इति उक्तवन्तः। अग्रे पठतु भगिनि।
एवं सति द्रव्यं प्रथमतः कुतः निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वे अपि द्रव्यमाश्रित्य तिष्ठन्ति इति यदुक्तं तदपि स्पष्टम्। एवमेव द्रव्यं यत्रापि यत्र यत्र तत्र निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वे द्रव्ये।
अवश्यं अस्ति भगिनि,
ध्वनिः एकनिमिष अस्तु। हरिप्रिया भगिनी, तर्हि द्रव्यं प्रथमतः निर्दिष्टं खलु? सर्वे इतरे पदार्थाः, अग्रिमपुटे पश्यतु, द्रव्ये गुणः अस्ति, द्रव्ये कर्म अस्ति, द्रव्ये सामान्यम् अस्ति, द्रव्ये विशेषः, द्रव्यं समवायः, द्रव्ये अभावः, एतत् सर्वमपि द्रव्ये अस्ति इति कृत्वा द्रव्यमाश्रित्य तिष्ठन्ति इति कृत्वा द्रव्यस्य निरूपणं प्रथमं जातम् इति वार्ता। समीचीनं मुरलीमहोदय, किम्
अस्ति अस्ति भगिनि,
प्रयत्नं करोति वा महोदय चित्रस्य वदनार्थं निष्ठ वान् उपयुज्य यद् भगिनी उक्तवती अधुना?
निष्ठ no, I was looking for this paraspara sambandham asti adhikaranata adeyata iti dve padam yagyadatah adeyata asanam adhikaranata
asane adhikaranata yagyadatah
adeyata द्वे पदानि परस्परसम्बन्धम् अस्ति, निरूपिता निरूपिका सम्बन्धमस्ति चेत्
इत्येव अस्माभिः अधुना उक्तम्। आसननिष्ठ अधिकरणता निरूपित अधेयताश्रयः यज्ञदत्त, तत्र अधिकरणता अधेयता अनयोः निरूपकनिरूप्यभावः अस्ति। अतः आसनात् आरभ्य आसननिष्ठाधिकरणता तया निरूपित आधेयता आधेयताश्रयः यज्ञदत्तः इति आगतं, तद्वदेव यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणतावत् आसनम् इति आगतम्। अस्तु, एवमेव द्रव्यगुणस्यापि निरूपणं कृतवन्तः यद् भगिनी उक्तवती, द्रव्यनिष्ठ अधिकरणता निरूपित अधेयतावान् गुणः, गुणः कीदृशः इति चेत् एतत् सर्वम् आगच्छति।
गुणः गुणः आदेय आदेयः आधेयता निष्ठः
हा हा गुणः आधेयता गुणे अधेयता अस्ति,
द्रव्यता अस्ति, द्रव्यम् अधिकरणता अस्ति,
द्रव्यम् अधिकरणं तस्मिन् अधिकरणता अस्ति इति वार्ता आसीत् एतावत् पर्यन्तं।
स्माल् डौट् मेडम् बिकास् ऐ एम् सारि दिस् यज्ञदत्तः आसनं द्वे पदे मध्ये सम्बन्धम् अस्ति वा, निरूपितनिरूपणसम्बन्धम् अस्ति?
नास्ति नास्ति, यावत्पर्यन्तं यज्ञदत्तः आदेयः नास्ति, यावत्पर्यन्तम् आसनम् अधिकरणं नास्ति तावत्पर्यन्तं नास्ति। यदा यदा यज्ञदत्तः आदेयः इति वदामः तदा प्रश्नः आगच्छति अधिकरणं किम् इति।
सेम् वे व्यासः कृष्णकथा, व्यासः कृष्णकथा इन् दीस् टु टर्म्स्। सी यु ऐ अण्डर्स्टुड् दट् देर् इस् वितौट् व्यास देर् इस् नो कृष्णकथा।
Without Krishna Kata, there is Vyasa.
There is Vyasa.
So it's not bidirectional in that case.
Oh, so this is, both of these are against each other.
right but
in adhikarana asana
ha but in adhikaranata adheyata it is bidirectional nirupya nirupaka bhavah asto समीचीनम् अत्र समापयामः गृहपाठत्वेन गृहे चिन्तयतु द्रव्ये यथा द्रव्ये यथा गुणः अस्ति द्रव्ये कर्म अस्ति द्रव्ये सामान्यमस्ति द्रव्ये विशेषः अस्ति सो यु आल् केन् रैट् सेण्टेन्सस् लैक् दिस् द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः आधेयताश्रयः कर्म द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयसामान्यम् अपि च विपरीतदिशे अपि कर्मनिष्ठ आदेयता निरूपित अधिकरणताश्रयः द्रव्यं तर्हि गृहपाठरूपेण गृहपाठरूपेण द्रव्ये किं किम् अस्ति इति चिन्तयित्वा दीर्घवाक्यानि रचयन्तु अग्रिमसप्ताहे चर्चा भवति तस्य
अवश्यम्
अस्तु
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 And another thing, madam, I want the recording of this session because I am new to this.
I am recording this session. Atra bhavatu madhya ekanimsha, recording stagayami. Anya kopi prashna hasti va?
Nothing, but how can I get that recording? That's what I'm...
Mahari, I'll explain it to you. I'll just stop the recording, stay back on the line, we'll talk. Anya kopi prashna hasti chet? Asto. Prashna ha nasanchi santi chet, shubaratri.
Bhagini. भगिनी एकं प्रश्नम् अस्ति प्रतियोगित्वादयः शब्दस्य अर्थं किं
प्रतियोगिता इति एकः पदार्थः अस्तु भगिनि सः पदार्थः अग्रे आगच्छति प्रतियोगितम् प्रतियोगिता इति अपि एकः पदार्थः अग्रे आगच्छति
धन्यवादः भगिनि
धन्यवादः अस्तु बुद्धं वा भगिनि
भगिनि पुनर् एकवारमपि वदतु पुनरपि
प्रतियोगित्वादयः वक्ष्यमाणाः इत्यस्य विषये पृच्छति खलु भवती प्रतियोगित्वम् इति एकः पदार्थः अग्रे आगच्छति वक्ष्यमाणः इत्युक्ते भविष्यत्काले आगच्छति तदा चर्चयामः अधुना आधेयता अधिकरणता तयोः विषये बोधः भवेत् अस्तु तौ द्वौ ससम्बन्धिकौ पदार्थौ इति समीचीनं वा अस्तु एकनिमिष अहं रेकार्डिङ्ग् स्थगयामि
एकं पदार्थं
हा प्रतियोगिता इति एकः पदार्थः एकनिमिषः धन्यवादः